गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर गुरु साक्षात परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमान मूलविषयः अस्ति तत्र रूपं तत्र अधिकरणे सर्वत्र तिष्ठति अथवा एकस्मिन् भागे एव तिष्ठति नाम तस्य अव्याप्यवृत्तित्वम् अस्ति अथवा व्याप्यवृत्तित्वम् अस्ति इति तस्य अन्वेषणार्थं वयं तत्र अन्ये तत्र गुणाः ये सन्ति तेषां चिन्तनमपि कृतवन्तः इदानीं तत्र अस्माकं प्रश्नः अस्ति तत्र अवच्छेदकत्वं तत्र नाम घटः अस्ति घटे तत्र घटः अस्ति अस्तु घटः अस्ति घटे तत्र घटत्वम् अस्ति अपि तत्र घटस्य अभावः अस्ति अभावे अनियोगिता अस्ति घटे प्रतियोगिता अस्ति अपि तत्र तयोः मध्ये तत्र घटत्वमपि प्रतियोगिता तयोः मध्ये कीदृशसम्बन्धः वर्तते शोभा भगिनी
अवच्छेदकत्वम् अपि च अवच्छेद्यता अभावः वर्तते महोदय
हा समीचीनं भगिनी हा तत्र अवच्छेदकं किम् अत्र
घटत्वम् इति अवच्छेदकम् अवच्छेद्यता इति प्रतियोगिता भवति
प्रतियोगिता समीचीनं भगिनि हा अपि तत्र घटत्वं यत्र वर्तते तत्र किं प्रतियोगिता अपि वर्तते वा
हा घटत्वं यत्र यत्र वर्तते तत्र तत्र प्रतियोगिता अपि वर्तते
हा
अतः तत्र समानरूपं भवति
अपि यत्र यत्र प्रतियोगिता वर्तते तत्र तत्र
घटत्वमपि वर्तते
घटत्वमपि वर्तते समीचीनम् अतः तत्र वयम् उक्तवन्तः तत्र नाम तत्र किम् आसीत् तत्र अन्यून अनतिरिक्त
अन्यून अनतिरिक्त एकक्षणं महोदय तत्र अन्यून अनतिरिक्त वृत्तित्वेदकता इति दृष्टवान्
अनतिरिक्त अनतिरिक्त अस्तु अस्तु अनतिरिक्त अवच्छेदकत्वं भवति अवच्छेदकत्वरूपम् अस्ति अत्र
सत्यं यतोहि घटत्वम् इति अस्ति
अवच्छेदकत्वम् अस्ति तत्र अनतिरिक्तम् इति अस्ति यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता अपि तत्र अन्यून अनतिरिक्त इति अस्ति अपि तत्र तयोः मध्ये तत्र अवच्छेदकभावः अस्ति इति कृत्वा तत्र समान अधिकरणमपि अस्ति खलु तयोः
समान अधिकरणम्
अधिकरणं किम् अस्ति तयोः
तयोः अधिकरणं घटः एव
घटः एव तत्र अधिकरणम् इति अस्ति समीचीनम् इदानीं तत्र वयं दृष्टवन्तः तत्र पद्माभगिनी नमस्कारः चन्द्रमती भगिनी नमस्कारः 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 अस्तु इदानीं योगेन्द्रमहोदय किं कृतवान् अस्तु इदानीं योगेन्द्रमहोदय तत्र वयं तत्र संयोगः कपिसंयोगः दृष्टवन्तः तत्र कपिसंयोगस्य अवच्छेदकः तत्र कपिसंयोगस्य अधिकरणं किम् अस्ति
वृक्षः अस्ति
वृक्षः अस्ति समीचीनं संयोगः तत्र वृक्षे भवति वृक्षः अस्तु अपि तत्र तत्र वयं किम् उक्तवन्तः तत्र अवच्छेदकं किं भवेत् तत्र वृक्षत्वं भवेत् वा अवच्छेदकं कपिसंयोगस्य वृक्षत्वं भवितुम् अर्हति वा नाम यत्र यत्र वृक्षत्वं तत्र तत्र कपिसंयोगः इति वक्तुं शक्नुमः वा
यत्र यत्र वृक्षत्वं तत्र तत्र कपिसंयोगः नास्ति
नास्ति अतः तत्र वृक्षत्वम् इति यथा वयं घटत्वं धर्मः घटे विद्यमानः धर्मः स्वीकृतवन्तः प्रतियोगितायाः अवच्छेदकरूपेण तादृशम् अत्र वयं न कर्तुं शक्नुमः अत्र अत्र वयं किं स्वीकृतवन्तः वयं वृक्षस्य अग्रभागः इति स्वीकृतवन्तः खलु
अग्रभागः
अग्रभागः अग्रम् अथवा अग्रभागः अग्रभागः एव तत्र तत्र अवच्छेदकम् आसीत् तत्र कपिसंयोगस्य इति अस्ति तत्र नीलरूपेण तत्र अवच्छेदक अवच्छेदक तत्र सम्बन्धं प्रदर्शयामः तर्हि इदानीं प्रश्नः अस्ति अस्तु तत्र यत्र अग्रभागः तत्र कपिसंयोगः इति अपि यत्र कपिसंयोगः तत्र अग्रभागः इति तत्तु समीचीनम् इदानीं महोदय प्रश्नः तत्र किं तत्र अग्रभागः वृक्षे अस्ति वा अथवा किम्
अग्रभागः वृक्षे एव अस्ति
इति वा
वृक्षे एव अस्ति अग्रभागः
न्यायशास्त्रे तत्र किं चिन्तनं तत्र तत्र घटः अपि
वृक्षः वृक्षः अधिकरणमस्ति अग्रभागस्य
अस्तु तर्हि पुनः चिन्तयामः महोदय तत्र तन्तवः सन्ति पटः अस्ति पटः नाम वस्त्रम् अपि तन्तवः 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 स्ट्रिङ्ग्स् इति तदस्ति वस्त्रं साक्षात् वस्त्रं नाम तन्तुभिः पटस्य निर्माणं भवति खलु इदानीं प्रश्नः तत्र न्यायशास्त्रे सर्वदा तत्र किमपि वदामश्चेत् तस्य किमर्थं नाम तत्र युक्तिः का का इति वक्तव्यं नाम वक्तव्यं भवति नाम अस्तु तत्र
यदा पटः तन्तवः तत्र अवयविभावः अस्ति इति वक्तुम् इच्छति
हा हा समीचीनं महोदय अस्तु हा उत्तमं तर्हि तत्र अवयवी कः अपि अवयवः कः अत्र
अवयवी वृक्षः अस्ति अवयवः अग्रभागः अस्ति
हा उत्तमं महोदय तत्र पटस्य विषये तत्र वयं किम् उक्तवन्तः तत्र एतदेव अवयवी तत्र अस्तु अवयवी अपि अवयवः तत्र वृक्षः किं भवति अवयवी अस्तु समीचीनं महोदय
अवयवी भवति
अपि अग्रभागः अवयवः तर्हि प्रश्नः अवयवः अवयवी भवति वा अवयविनी भवति वा अथवा इति तत्र प्रश्नः अस्ति महोदय नाम अत्र अस्ति पश्यतु अवयवः अवयविनी भवति अथवा अवयवी अवयवे भवति किम्
अवयवः अवयविनी भवति अवयवी अवयवे न भवति
अतः तत्र एकं तत्र अवयवः अवयविनी भवति इति अस्माकं चिन्तनं खलु सर्वदा साधारणतया हा तत् लौकिकरूपेण तदेव वयं स्वीकुर्मः नाम तत्र तन्तवः पटे सन्ति इति वदामः खलु किन्तु न्यायशास्त्रे तत्र विपरीतया चिन्तनमस्ति महोदय यतोहि ते किं वदन्ति तत्र अधिकरणम् आश्रयः किं किं भवेत् नाम तत्र पटेन विना तन्तः भवितुम् अर्हन्ति वा
न न भवति
न न पटेन विना
पटेन विना तन्तवः भवितुम् अर्हति
अर्हति खलु
पृथक् पृथक्तया भवति
भवति इदानीं तत्र तन्तुभिः विना पटः भवितुम् अर्हति वा?
तन्तुभिः विना पटः न भवति.
अतः तत्र आश्रयः किं भवितुम् अर्हति इत्युक्ते यस्य आवश्यकता अस्ति यं विना तत्र अन्यः पदार्थः न भवितुम् अर्हति, सः एव आश्रयः.
अस्तु, अतः तन्तवः नास्ति तदा पटः नास्ति, एवं रीत्या अग्रभागः यदा वृक्ष नास्ति तदा वृक्षः नास्ति, वृक्ष वक्तुं न शक्नोति तम्.
न न न महोदय, केवलं पटः तन्तवः स्वीकुर्मः, तत्र न्यायशास्त्रे किं वदन्ति, तत्र पटः साक्षात् पटः एव तत्र तन्तुषु वर्तते इति तेषां मतम्. तेषां मतम् अस्ति पटः तन्तवः आधारः अस्ति, तन्तवः पटः अस्ति आधेयः. अत्र अपि सम्बन्धः अस्ति, समवायसम्बन्धः. तत्र जातिव्यक्तयोः अवयव अवयविनियो तत्र अवयव अवयवयोः तयोः मध्ये तत्र तत्र वयं पूर्वं दृष्टवन्तः, तत्र केवलं तत्र पञ्चस्थलेषु एव तत्र पञ्चसु स्थलेषु एव तत्र समवायसम्बन्धः भवति. अवयवी अवयवे भवति इति, अथ तत्र आधारः आश्रयः अवयवाः आश्रयः
सन्ति.
हा, आदेयः अस्ति पटः. तथैव अत्र चिन्तयामश्चेत् तत्र किं भवति, वृक्षः तत्र अग्रभागे अस्ति, न तु विपरीततया अग्रभागः वृक्षे अस्ति, यतोहि अवयवी अवयवे भवति, अवयवः अवयविनि न भवति न्यायशास्त्रे. अतः किम् अभवत् इदानीं तत्र अवच्छेदकभावः इति वयं वक्तुम् इच्छामः, किन्तु तत्र किम् अभवत् इदानीं कपिसंयोगः तत्र घटत्वम् अपि तत्र घटत्वम् अपि तत्र तत्र घटत्वम् अपि प्रतियोगिता तत्र घटस् तत्र घटाभावनिरूपितप्रतियोगिता तयोः समान अधिकरणमस्ति घटः खलु. अपि तयोः मध्ये अवच्छेदक अवच्छेद्यभावः अस्ति. अत्र कपिसंयोगः अपि अग्रभागः तयोः मध्ये अवच्छेदकः अवच्छेद्यभावः सम्बन्धः अस्ति, किन्तु संयोगस्य कपिसंयोगस्य आश्रयः अधिकरणमस्ति वृक्षः. अग्रभागस्य आश्रयः कः? अन्यत् किमपि भवेत्, किन्तु वृक्षः तु नास्ति खलु.
वृक्षः तु नास्ति,
वृक्षः नास्ति, अतः अत्र समान अधिकरणं नास्ति. नास्ति अत्र, यतोहि अग्रभागः वृक्षे नास्ति. अतः तत्र तत्र अवच्छेदकत्वं यत् अत्र वर्तते तादृशम् अवच्छेदकत्वम् अत्र न वर्तते खलु, भिन्नमस्ति खलु. अत्र यत् अवच्छेदकत्वम् अस्ति अत्र समान अधिकरणमस्ति. अत्र वयं अङ्गीकुर्मः, अस्तु अस्तु, तत्र कपिसंयोगः अपि अग्रभागः तयोः मध्ये तत्र अवच्छेदकभावः अस्ति, सम्बन्धः अस्ति, किन्तु तत्र समानाधिकरणं नास्ति, अतः भिन्नरूप अवच्छेदकत्वम् अस्ति अग्रभागे. अग्रभागे यत् अवच्छेदकत्वम् अस्ति तद् घटत्वनिष्ठ अवच्छेदकत्वात् भिन्नम् अस्ति इति वयं गतवर्गे अवगतवन्तः. समीचीनं वा महोदय एतावत्?
समीचीनम्.
अस्तु, इदानीं तत्र अग्रे सरामः तर्हि. तत्र नूतनतया तत्र नरसिंहमहोदय नमस्कारः.
नमस्कारः
नमस्कारः महोदय अस्तु इदानीम् अग्रे सरामः तर्हि तत्र एतत् सर्वं वयं पठितवन्तः तत्र अग्रभागः तत्र वृक्षे न भवितुम् अर्हति तर्हि तत्र वृक्षः एव अग्रभागे भवितुम् अर्हति इति अत्र
महोदय एकः संशयः अवेविनि अवेवि अर्थभेदः किम् अस्ति
ओ अत्र वा अत्र वा भगिनि अत्र वा अत्र भगिनि तत्र अवयवी इति तत्र इनि प्रत्ययस्य तेन प्राप्तं पदं तर्हि तत्र यस्य अवयवः अस्ति सः अवयवी तर्हि नकारान्तपदं नकारान्तपदम् अवयविन् इति प्रातिपदिकं पुल्लिङ्गे अवयवी इति दीर्घ ईकारस्य रूपम्
अस्तु तदवगतम् अवयविनि
अत्र तर्हि अवयवी इति प्रथमाविभक्तिरूपं तत् कुत्र अस्ति अवयवे अस्ति इति प्रश्नः अत्र अत्र प्रथमाविभक्तिरूपम् अत्र अवयवः तस्य अधिकरणं किं तत् कुत्र अस्ति इत्युक्ते अवयविनि अत्र सप्तमी विभक्तिरूपम् अत्र
अस्तु अवयवी प्रथमाविभक्ति अवयविनि सप्तमी विभक्ति वा
हा यतोहि नकारान्तपदम् अस्ति प्रातिपदिकं नकारान्तपदम् अस्ति गुणिन्वत्
अस्तु अस्तु
हा गुणि इति प्रथमाविभक्ति गुणिनि इति सप्तमीविभक्ति धनीन् तत्र धनी धनिनि इति सप्तमीविभक्ति तथैव अत्र
अस्तु अस्तु
तर्हि अवयविनि इति तत्र सप्तमीविभक्ति कुत्र भवति अवयविनी भवति वा इति अस्ति अस्तु अग्रे सरामः तर्हि अस्तु तर्हि
क्षम्यतां महोदय विलम्बेन
अग्रभागः वृक्षः अग्रभागे अस्ति कपिसंयोगः अग्रभागे अस्ति वा
न कपिसंयोगः वृक्षे अस्ति
अस्तु कपिसंयोगः
किं भगिनि
कपिसंयोगः अग्रभागे इति स्वीकर्तुं न शक्नुमः वा
न यतोहि तत्र वृक्ष कपिः अपि वृक्षः तयोः एव संयोगः खलु
अस्तु
यदि वयं तत्र हस्तसंयोगः इति वदामः अथवा तत्र हस्तभित् तयोः सम्बन्धः इति वदामः संयोगसम्बन्धः इति वदामः तत्र सम्पूर्णतया हस्तः भवति न वा इति वार्ता नास्ति खलु तत्र हस्तस्य एकभागः भित्तेः एकभागः तयोः संयोगः इति एव वार्ता खलु अतः तत्र संयोगः इति तद् वृक्षे एव भवति किन्तु वृक्षे कुत्र अस्ति इत्युक्ते तत्र वयं वदामः अस्तु अग्रभागे अस्ति तत्र यदि तत्र उत्पीठिका भवति इति चिन्तयतु हस्त उत्पीठिका तयोः संयोगः अस्ति इति वदामश्चेत् तत्र अन्यत् किं तत्र समानं नास्ति यतोहि तत्र वयं न वदामः तत्र उत्पीठिकायाः तत्र अवयवाः सन्ति इति न स्वीकुर्मः खलु तत्र एका एव उत्पीठिका अस्ति इति चिन्तनं किन्तु वृक्षः अस्ति चेत् तत्र शाखाः सन्ति शाखाः अवयवाः सन्ति इति साधारण अङ्गीकरणं खलु
कपिसंयोगः वृक्षे अस्ति वृक्षः अग्रभागे
हा इति अस्ति अतः तत्र समान अधिकरणं नास्ति अस्तु अग्रे इदानीं सरामः तर्हि तत्र नीता भगिनी अग्रे पठति वा अत्र प्रश्नः अस्ति एषः प्रश्नः तत्र पीतवर्णे यदस्ति यत् वयं पठितवन्तः तस्य उत्तरं दातव्यम् इति अत्र आरम्भम्
अत्र
अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम्। अवयवः अवयविनी भवति किम्? नैव। अवयवी अवयवे भवति समवायसम्बन्धेन, यथा घटः कपाले, तथैव वृक्षः अग्रे अग्रभागे अस्ति, शाखासु वृक्षः समवायसम्बन्धेन, अतः वृक्षः अग्रदेशे इति वक्तुं शक्यम्, किन्तु विपरीतत्वेन अग्रदेशः वृक्षे इति न। तत्र केवलं षष्ठीविभक्त्याः प्रयोगः, वृक्षस्य शाखा वृक्षे न। वृक्षस्य शाखा इत्यनेन वृक्षसम्बन्धिनी शाखा तावदेव। वृत्तनियामकसम्बन्धः अपि सम्भवति। वृत्तिनियामकसम्बन्धः अपि सम्भवति, किन्तु
वृत्ति अनियामकसम्बन्धः अपि सम्भवति। तत्र यकारः वृत्तिनियामकः,
वृत्ति अनियामकसम्बन्धः अपि सम्भवति, वृत्तिनियामकसम्बन्धः अपि सम्भवति, किन्तु अत्र कपिसंयोगवृक्षस्थले आहत्य सारांशः एवं यत् अग्रभागः वृक्षे इति न कदापि भवति। अत्र अस्माकं चिन्तनम् अस्ति अवयवः अवयविनी भवति अथवा अवयवी अवयवे भवति। अत्र वाक्यशः अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम्। अवयवः अवयविनी भवति किम्? तत् नैव। अत्र वृक्षस्य अग्रभागः इति अवयवः अस्ति, वृक्ष इति अवयवी अस्ति। वृक्षस्य अग्रभागः अवयवः, वृक्ष इति अवयवी। तत् अवयवः अवयविनी नैव भवति। यत्र अवयविनी इति सप्तम्यन्तं पदम्, अयस्य अवयवः सन्ति, तत् अवयविनी इनि प्रत्ययन्तपदं, तत् अवयवः अवयविनी इति नास्ति, यतोहि तत् अवयवः अवयवः अवयवी अवयवः अधिकरणमस्ति, तत् अवयवी आधेय अस्ति, तत् अधिकरणम् आधेय इति न सम्भवति इति तस्य अर्थः। अवयवी अवयवे भवति समवायसम्बन्धेन, यथा पटस्य उदाहरणं वयं स्वीकृतवन्तः, तथैव अवयवी अवयवे भवति समवायसम्बन्ध। पटः भवति तन्तुषु, तत्र तथैव अवयवी अवयवे भवति समवायसम्बन्धेन। यथा घटः कपाले, घटः कपाले तस्य उदाहरणमत्र अस्ति, अवयवी अवयवे भवति समवायसम्बन्ध। अत्र समवायसम्बन्ध जाति व्यक्तिषु अवयव अवयवी गुणद्रव्ये, तथैव घटः कपाले अपि अवयवी अवयवे समवायसम्बन्धः वर्तते। तथैव वृक्षः अग्रे अस्ति, शाखासु वृक्षः समवायसम्बन्धेन वर्तते। शाखासु वृक्षः वर्तते, तत्र शाखा शाखासु वृक्ष शाखा अवयवी सन्ति, शाखाः अवयवी सन्ति, वृक्षः अवयव अस्ति। तत् न विपरीतदृष्ट्या उक्तं, क्षम्यतां, शाखाः अवयवः अस्ति, वृक्ष अवयवी, तत् वृक्षः शाखासु वर्तते इति अस्ति, अवयवी अवयवे वर्तति इति अस्ति। अत्र अतः वृक्षः अग्रदेशे इति वक्तुं शक्यं, किन्तु विपरीतत्वेन अग्रदेशे वृक्षे इति न भवति। तत्र अग्रदेशः वृक्षे अस्ति इति वयं वक्तुं न शक्नुमः। अग्रदेशः वृक्षे इति वृक्षे अधिकरणत्वेन तत्र न आगच्छति, यतोहि तत्र वृक्ष आधेय अस्ति, अतः अग्रदेशः वृक्षे इति स्थितिः न भवति। तत्र केवलं षष्ठीविभक्त्याः प्रयोगः, सम्बन्धः एव तत् सूचितमस्ति, वृक्षस्य शाखा, तत्र वृक्षस्य इति षष्ठम्यन्तं पदं, सम्बन्धः अस्ति, वृक्षस्य शाखा अस्ति इति वक्तुं शक्नुमः, किन्तु शाखाः इति अवयव वृक्षे अस्ति, इति वयं वक्तुं न शक्नुमः. तत्र केवल षष्टिविभक्त्या उपयोजित्वा वयं सम्बन्ध सम्बन्ध स्थापितुं शक्नुमः.
एकनिमिष, अहं न जानामि किम् अभवत्. अस्तु,
षष्टिविभक्त्याः प्रयोगेण सम्बन्ध दर्शयितुं वयं शक्नुमः. वृक्षस्य शाखा अस्ति, किन्तु शाखाः वृक्षे अस्ति इति वयं शाखाः वृक्षे सन्ति इति वयं वक्तुं न शक्नुमः. वृक्षस्य शाखा इत्यनेन वृक्षसम्बन्धिनी शाखा तावदेव षष्टिविभक्ति प्रथमं. वृत्ति अनियामकसम्बन्धः अपि सम्भवति, वृत्तिनियामकसम्बन्धः अपि सम्भवति. तत् न अवगतं.
नाम यत्र वयं किमपि वदामः तत्र रामस्य पुस्तकम् अथवा तत्र रामस्य पुस्तकम् अथवा तत्र पृथिव्याः गन्धः इति वदामः, तत्र सम्बन्धः षष्टि इति कृत्वा तत्र सम्बन्धः भवति खलु. किन्तु तत्र सम्बन्धेन कुत्रचित् सम्बन्धः जानीमश्चेत् तत्र वृत्तिनियामकः अस्ति चेत् तत्र वयं जानीमः तत्र नाम यः आदेयः भवति यः यत् अधिकरणं भवति इति जानीमः. यत्र वृत्तिनियामकसम्बन्धः अस्ति नाम गुणद्रव्ययोः मध्ये वृत्तिनियामकसम्बन्धः अस्ति खलु, तत्र एकः अन्यस्मिन् एव भवति. तत्र द्रव्यं कदापि तत्र गुणे न भवितुम् अर्हति खलु. तत्र वृत्तिनियामकसम्बन्धः अस्ति नाम पृथिव्याः गन्धः इति वदामः, किन्तु वयं जानीमः तत्र तु गन्धः एव पृथिव्यां भवति न तु विपरीतत्वेन. अतः तत्र सम्बन्धः द्विविधः अस्ति, वृत्तिनियामकसम्बन्धः अस्ति, वृत्ति अनियामकसम्बन्धः अपि अस्ति. अत्र यदि वृत्तिनियामकसम्बन्धः आसीत् तत्र प्रायशः वयं किमपि वक्तुं शक्तवन्तः. यत्र वृत्ति अनियामकसम्बन्धः अस्ति तत्र वयं किमपि न वक्तुं सम्बन्धः वक्तुं शक्नुमः, नाम तत्र अधिकरणं किम् आदेयः कः इति न वक्तुं शक्नुमः. अतः तत्र षष्टि इत्यनेन केवलं सम्बन्धः इत्येव आगतं. तस्य अनन्तरं स्थितिः का इति यदि अवगन्तुं इच्छामः तर्हि सम्बन्धः कीदृशः इति अन्वेषणं कर्तव्यं भवति. केवलं सम्बन्धः अस्ति इत्यनेन तत्र एकम् अन्यस्मिन् निश्चयेन वर्तते इति न वक्तुं शक्नुमः. नाम तत्र वृक्षस्य शाखा इत्यनेन तत्र केवलं सम्बन्धः, तेन वयं न अवगच्छामः तत्र शाखा वृक्षे अस्ति वा अथवा वृक्षः शाखायाम् अस्ति वा इति न तेन न किमपि अवगन्तुं शक्नुमः. केवलं सम्बन्धः एव अस्ति इत्येव तावत्.
अस्य कृते आचार्य रामस्य पुस्तकमिति यदा वदामः तत्र अपि अयमेव भावः, कः कस्मिन् वर्तते इति वक्तुं न शक्नुमः. रामस्य पुस्तकं
तथैव अस्ति. अतः तत्र केवलं सम्बन्धः एव तस्मात् तेन अवगन्तुं किं षष्टिविभक्त्याः
यत्र षष्टिः प्रयोगः दृश्यते तत्र केवल सम्बन्धवाचिने एव भवति.
तस्य अधिकं किमपि नास्ति तत्र.
आदेय अधिकरणस्य विषये किमपि वयं वक्तुं न शक्नुमः इति. किन्तु अत्र कपिसंयोगवृक्षस्थले आहत्य सारांशः एवं यत् अग्रभागः वृक्षे इति न कदापि भवति. अत्र कपिसंयोगवृक्षस्थले विषये केवलं वयं वक्तुं शक्नुमः सम्बन्धदृष्ट्या एव वयं वक्तुं शक्नुमः. तत्र अग्रभागः वृक्षे तत् आधेय अधिकरणं वृक्ष अस्ति, अग्रभागः आधेय अस्ति इति न कदापि सम्भवति इति
स्पष्टमस्ति. स्पष्टमस्ति, समीचीनं भगिनि, धन्यवादः.
धन्यवादः
आचार्य. तत्र नियामकसम्बन्ध अपि
सम्भवति इति अपि लिखितं खलु
न अग्रिमद्वयमपि भवितुम् अर्हति किन्तु
शक्यते यदा वृक्षस्य शाखा तत्र तु भवति एव परन्तु रामस्य पुस्तके न भवति
नाम अधिकं चिन्तनम् अपेक्षितम् अस्ति केवलं षष्टिविभक्तेः प्रयोगात् सर्वं स्पष्टम् इति न वक्तुं शक्नुमः इति तावदेव
शक्यते वा न अपि शक्यते
भगिनी भवती एव इदानीम् अग्रे पठति यतोहि गतवर्गे भवती न पठितवती अतः भवती एव
एतावता प्रयत्नेन अग्रभागस्य किमर्थम् अवच्छेदकत्वं वक्तव्यम् इति प्रश्ने सति समाधानत्वेन कपिसंयोगस्य अव्याप्यवृत्तित्वनिर्वाहनार्थम् अव्याप्यवृत्तिः इति सूचनार्थं ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वम् अपि च वस्तुतः अग्रभागस्य कथनेन वयम् अवगच्छामः यत् कपिसंयोगः वृक्षस्य एकस्मिन् भागे अस्ति अपरस्मिन् भागे मूले च नास्ति मूले कपिसंयोगाभावः अतः अनेन व्यवहारे श्रोतुः मनसि स्पष्टता जायते कपिसंयोगः कुत्र अस्ति कुत्र च नास्ति अनेन साफल्यं प्राप्तं तर्हि अग्रभागः इति अवच्छेदकः तु अस्ति किन्तु अन्यून अनतिरिक्तवृत्तिः न अपि तु अन्यप्रकारकः स्वरूपसम्बन्धावच्छेदकः एतावता प्रयत्नेन अग्रभागस्य किमर्थम् अवच्छेदकत्वं वक्तव्यम् अवच्छेदकत्व समाधानत्वेन कपिसंयोगस्य अव्याप्यत्वनिर्वाह अग्रभागस्य अवच्छेदकत्वम् अस्ति तु
नाम इति सोपने गच्छामः भगिनि तत्र कपिसंयोगः वृक्षे अस्ति खलु कपिसंयोगः वृक्षे अस्ति वृक्षे सर्वत्र अस्ति वा नास्ति नाम तत्र वृक्षे अधिकरणे कपिसंयोगः अपि अस्ति अपि कपिसंयोगस्य वृक्षे अधिकरणे कपिसंयोगः अपि अस्ति अपि कपिसंयोगः सर्वत्र नास्ति इति कृत्वा अन्यत् किम् अस्ति वृक्षे
कपिसंयोग अभावः
खलु
कपिसंयोग
भगिनि तत्र कपिसंयोगः सर्वत्र नास्ति खलु वृक्षे
आमामां कपिसंयोग अभावः
नाम अभावः अस्ति इति खलु
तर्हि
वृक्षे अधिकरणे संयोगः अपि संयोगः
अपि वर्तते कपिसंयोगाभावः अपि वर्तते
वर्तते तर्हि तत्र स्वाभावस्य स्वस्य अभावस्य अधिकरणे स्वस्य वृत्तित्वमेव अव्याप्य वृत्तित्वं खलु तद् अस्ति इति तत्र निर्वाहार्थं नाम तद् वक्तुं वयं किम् उक्तवन्तः अस्तु एकस्मिन् भागे एव अस्ति तर्हि तत्र अवच्छेदकः कः नाम तत्र कुत्र अस्ति इति तद् वक्तुं वयम् अग्रभागस्य उपयोगं कृतवन्तः खलु अग्रभागस्य आवश्यकता किमर्थम् आसीत् सर्वत्र नास्ति कपिसंयोगः तस्य अव्याप्य वृत्तित्वम् अस्ति वृक्षे इति वदनार्थं वयम् अग्रभागस्य तत्र तस्य आवश्यकता आसीत् खलु तदेव अग्रे अव्याप्य
अग्रभागे अवच्छेदकत्वं वर्तते अव्याप्यवृत्तिः इति सूचनार्थं ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वं
स्वीकृतम् अस्माभिः
अपि च वस्तुतः अग्रभागस्य कथनेन वयम् अवगच्छामः यत् कपिसंयोगः वृक्षस्य एकस्मिन् भागे अस्ति अपरस्मिन् भागे मूले च नास्ति मूले कपिसंयोगाभावः वर्तते
इति अवगच्छामः खलु
आम् आम्
यदि वयं वदामः तत्र अग्रभाग एव अवच्छेदकः इति वदामः तर्हि अस्तु यत्र अग्रभागः नास्ति तत्र कपिसंयोगः नास्ति तत्र कपिसंयोगस्य अभावः वर्तते इति अवगच्छामः
अनेन व्यवहारे श्रोतुः मनसि स्पष्टता जायते कपिसंयोगः कुत्र अस्ति कुत्र च नास्ति अनेन साफल्यं प्राप्तम्
खलु ते अतः तत्र तस्य उपयोगः अस्ति अवच्छेदकस्य तत्र अग्रभागस्य अवच्छेदकत्वेन प्रयोजनं तस्य उपयोगः वर्तते साफल्यम् अस्ति तस्य
आमाम् अग्र इति पदयोजनेन किञ्चित् इतोपि स्पष्टता भवति विषयस्य
अतः एव तत्र साफल्यम् अस्ति अवच्छेदकत्व अवच्छेदकरूपेण यदि अग्रभागः स्वीकुर्मः तस्य साफल्यं वर्तते
तर्हि अग्रभाग इति अवच्छेदकः तु अस्ति किन्तु अन्यूनातिरिक्तवृत्तिः न
अन्योन अनतिरिक्तवृत्तिः नास्ति तस्य अवच्छेदकत्वं अवच्छेदकः कीदृशं किमर्थं तस्य अन्योन अनतिरिक्तवृत्तिः नास्ति तत्र घटत्वमपि प्रतियोगिता तत्र किं स्थितिः का आसीत् यत्र यत्र घटत्वं
तत्र तत्र प्रतियोगिता वर्तते
प्रतियोगिता अपि यत्र यत्र प्रतियोगिता तत्र
तत्र घटत्वं वर्तते
घटत्वं नाम यत्र सामानाधिकरणमपि अस्ति अत्र सामानाधिकरणम् अस्ति वा तत्र अवच्छेदकम् अस्ति अग्रभागः अवच्छेद्यः कः अस्ति अत्र कपि
अवच्छेद्यः अस्ति कपिसंयोगः
कपिसंयोगः कपिसंयोगः कुत्र अस्ति
कपिसंयोगः
वृक्षे अस्ति तस्य अधिकरणं
वृक्षे
वृक्षः खलु वयम् इदानीमपि दृष्टवन्तः खलु तत्र
वृक्षे अस्ति
कपिसंयोगः वृक्षे अस्ति कपिसंयोगः वृक्षे अस्ति अग्रभागः वृक्षे अस्ति इति न वक्तुं शक्नुमः वृक्षः अग्रभागे अस्ति इति एव वक्तुं शक्नुमः तत्र समानाधिकरणं नास्ति अतः तत्र यादृशम् अवच्छेदकत्वम् अत्र वर्तते तादृशम् अवच्छेदकत्वम् अत्र न वर्तते खलु एतद् भिन्नमस्ति एतद् भिन्नमस्ति इति
जानीमः नास्ति इति
हा यदि अन्योन अनतिरिक्तवृत्तिः आसीत् तत्र समानाधिकरणं भवेत् किन्तु समानाधिकरणं नास्ति इति कृत्वा अन्योन अनतिरिक्तवृत्तिः नास्ति इति अवगच्छामः अतः अत्र उक्तमस्ति अत्र अवच्छेदकः अन्यप्रकारकः स्वरूपसम्बन्ध अवच्छेदकः इति द्वितीयप्रकारकः अवच्छेदकः अस्ति इति अस्ति अस्तु तस्य विवरणम् अग्रे इदानीं भवति अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र अन्य कोऽपि तत्र चन्द्रमती भगिनी अग्रे पठति वा
महोदय ध्येयम् आरभ्य
सत्यं 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 भगिनि
ध्येयं यत् अवच्छेदकता द्विविधा अन्यून अनतिरिक्तवृत्तित्व स्वरूपावच्छेदकता स्वरूपसम्बन्ध रूपावच्छेदकता च अग्रावच्छेदेन कपिसंयोग इत्यत्र संयोगनिष्ठा राधेयता निरूपित वृक्षनिष्ठा अधिकरणता तस्य तस्याः अवच्छेदक अग्रदेशः अत्र अग्रदेशनिष्ठा अवच्छेदकता स्वरूपसम्बन्धरूपा खडे विद्यमाना या अभावीया प्रतियोगिता तदवच्छेदकं भवति खडत्वं तत्र विद्यमानम् अवच्छेदकत्वम् अन्यून अनतिरिक्तवृत्तित्वरूपम् प्रतियोगितायाः अन्यून अनतिरिक्तवृत्तिखडत्वरूपधर्मः तत्र अवच्छेदकः तत्र अत्र वृक्षे केवलं स्वरूपसम्बन्धरूपावच्छेदकत्वम् अग्रदेशस्य
प्रायशः तत्र एतावत् पठतु भगिनि हा एतावत् पठतु तत्र अवच्छेदकः इति तावत्पर्यन्तं पठतु भगिनि हा
तत्र अवच्छेदकदा रूपद्वयम् अस्ति अवच्छेदकता एकमस्ति अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता अन्यमस्ति द्वितीयमस्ति स्वरूपसम्बन्ध रूप अवच्छेदकता अन्यून अनतिरिक्तवृत्तित्व अवच्छेदकता वयं खडे खडाभावे अत्र यत्र यत्र खडः अत्र यत्र तत्र तत्र प्रति खडस्य प्रतियोगिता अपि यत्र यत्र खडत्वम् अत्र तत्र तत्र खडस्य प्रतियोगिता अपि वर्तते इति वयं दृष्टवन्तः तदा अन्यून अनतिरिक्तवृत्तित्वम् इति अपि वयं दृष्टवन्तः किन्तु अत्र कपिसंयोगः अल वृक्षः अनन्तरम् अवयवः अवयवी शाखा
तत्र एकमेकं वाक्यं पठित्वा वदतु तत्र अग्रावच्छेदेन
अग्रावच्छेदेन कपिसंयोगः इत्यत्र संयोगनिष्ठाधेयता निरूपितवृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकः अग्रदेशः अत्र अग्रदेश
अग्र अवच्छेदेन कपिसंयोगः इति यदि शृण्मः तर्हि तत्र अवच्छेदकः कः अवच्छेद्यः कः
अवच्छेदकः अग्रभागः अवच्छेद्यः कपिसंयोगः
संयोगः इति अवच्छामः इति अवगच्छामः समीचीनम् अतः अग्रावच्छेदेन कपिसंयोगः इति यदि शृण्मः तत्र अवच्छेदकः अग्रदेशः कपिसंयोगः अवच्छेद्यः इति अवगच्छामः तर्हि तत्र कीदृशः अस्ति
अग्रदेशनिष्ठा अवच्छेदकता स्वरूपसम्बन्धरूपा इति तस्य विशिष्टं कार्यं किमस्ति इति अत्र अग्रदेशनिष्ठा अवच्छेदकता वर्तते स्वरूप तदेव स्वरूपनिष्ठा सम्बन्ध
किञ्चित् भिन्नरीत्या उक्तमस्ति यतोहि तत्र वयं किं तत्र किमर्थं तत्र अवच्छेदकस्य अन्वेषणं कृतवन्तः यतोहि तत्र वृक्षे अधिकरणताद्वयमस्ति खलु नाम तत्र कपिसंयोगनिष्ठ तत्र कपिसंयोगः अपि तत्र वृक्षे अस्ति कपिसंयोगस्य अभावः अतः तत्र अधिकरणताद्वयम् अस्ति अतः एव तत्र संयोगनिष्ठ आदेयता निरूपित वृक्षनिष्ठ अधिकरणता या अस्ति खलु
अव्याप्यवृत्तित्वम् एकत्र
सत्यं सत्यं किन्तु अधिकरणताद्वयम् अस्ति तयोः मध्ये भेदः कः इति वक्तव्यं खलु तदा एव अवच्छेदकस्य कार्यं भवति अवच्छेदकस्य आवश्यकता कुत्र अस्ति यत्र पदार्थद्वयमस्ति तत्र वयम् अथवा सम्बन्धद्वयमस्ति तदा वयं वदामः अस्तु तत्र भेदः कः अवच्छेदकेन वयं वदामः अस्तु अवच्छेदकस्य एतस्य अवच्छेदकः एषः अस्ति एतस्य अवच्छेदकः अन्यदस्ति अतः ते भिन्न ते तौ भिन्नौ इति अत्र अधिकरणताद्वयमस्ति वृक्षे एकाधिकरणता की का अस्ति संयोगनिष्ठ
अधिकरणता
संयोगनिष्ठ आदेयता
निरूपितनिष्ठ
अधिकरणता हा तस्याः अधिकरणतायाः अवच्छेदकः अस्ति अग्रदेशः खलु
संयोगनिष्ठ आधेयतानिरूपित अधिकरणता इदानीं वृक्षस्य अग्रभागे
न न न वृक्षे अस्ति अधिकरणता वृक्षे अधिकरणता वृक्षे अस्ति तस्य अवच्छेदकः अस्ति अग्रदेशः
अग्रदेशः वृक्षे अस्ति अवच्छेदकः अग्रदेशः
अत्र अग्रदेशनिष्ठा अवच्छेदकता
अग्रदेशनिष्ठा
वाक्यस्य अवगमनमस्ति खलु नाम संयोगनिष्ठ आदेयत एतत् यदि पठामश्चेत् खलु एतत् पठति चेत् संयोगनिष्ठ आदेयत निरूपित वृक्षनिष्ठ अधिकरणता
संयोगनिष्ठ
कपि संयोगनिष्ठ आदेयत निरूपित वृक्षनिष्ठ अधिकरणता भवती बहुवारम् एतत्
वृक्षे वृक्षे अधिकरणता संयोग संयोगे
अधिकरणतायाः अवच्छेदकः अस्ति अग्रदेशः
अग्रदेशः
अस्तु समीचीनं खलु भगिनि
अस्तु
अतः इदानीं तत्र अग्रदेशे अत्र नाम अत्र अग्रदेशनिष्ठा अवच्छेदकता कीदृशी अस्ति
कवि संयोग अग्रदेश उच्छेदकता स्वरूपसम्बन्धरूपा
स्वरूपसम्बन्धरूपा नाम द्वितीयप्रकारकः अस्ति
द्वितीयप्रकारकः न्यूनानतिरिक्तं नास्ति
नास्ति
स्वरूपसम्बन्धः
हा इति अस्ति अस्तु अग्रे घटे
घटे विद्यमाना या अभावीय प्रतियोगिता अत्र अभावीयप्रतियोगिता इत्युक्ते खडत्वं नास्ति अभावः खडस्य अभावः तस्य प्रतियोगिता
नाम सम्बन्धी अभावसम्बन्धी इति कृत्वा
प्रतियोगिता अभावसम्बन्धी
प्रतियोगिता भारतीय यथा तथैव अभावसम्बन्धीयः अथवा अभावसम्बन्धीया अभावीया भवति प्रतियोगिता
प्रतियोगिता इति स्त्रीलिङ्गे अस्ति अतः एव अभावीय
समीचीनं भगिनि
कडे विद्यमाना या प्रतियोगि अभावीया प्रतियोगिता तदवच्छेदकं भवति खडत्वं तस्य अवच्छेदकत्वं खड भवति खडत्वं
तस्य अवच्छेदकं
अवच्छेदकम् अवच्छेदकं भवति खडत्वं तत्र तत्र विद्यमान अवच्छेदकत्वम् अन्यूनान अनतिरिक्तवृत्तित्वरूपं खड खड तत्र विद्यमान खड खडे
न घटत्वे घटः
घटत्वे
घटत्वम् अवच्छेदकम् अस्ति तर्हि घटत्वे अवच्छेदकता अथवा अवच्छेदकत्वं वर्तते खलु
घटत्वे विद्यमानम् अवच्छेदकत्वम् अन्यूनान अनतिरिक्तवृत्तित्वरूपम्
रूपमस्ति वयं पूर्वं दृष्टवन्तः अस्तु अग्रे
प्रतियोगितायाः अन्यून अनतिरिक्तवृत्ति घटत्वरूपधर्मः तत्र अवच्छेदकः प्रतियोगितायाः अन्यून अनतिरिक्तवृत्ति वृत्ति खडत्वरूपधर्मः तत्र अवच्छेदकः अवच्छेदकत्वं खडे विद्यमानम् अभा प्रतियोगिता अस्ति तत्र अवच्छेदकः खडधर्म खडत्वधर्मः
घटत्व खलु तत्र अवच्छेद्यः अथवा अवच्छेद्या का अस्ति
अवच्छेद्य खडे विद्यमान अभावीयप्रतियोगिता
हा समीचीनं भगिनि हा अपि अवच्छेदकम् अस्ति घटत्वं घटत्वम् इति धर्मः अस्ति कीदृश तत्र घटत्वरूपधर्मः कीदृशः अवच्छेदकः अन्यून
अन्यून अनधिकृत
वृत्ति वृत्ति अस्ति तादृशरूप अवच्छेदकता अत्र भवति अस्तु समीचीनं भगिनि हा अस्तु इदानीम् अग्रे सरामः तर्हि
अभावीयपदस्य व्युत्पत्ति का
तत्र भारत भारतीय इति यथा भवति समानप्रत्ययः प्रत्ययः कः इति न स्मरामि अन्य कोऽपि स्मरति वा तत्र
आभारतमिति वा
कः कोऽपि वदति वा तत्र
तद्धितप्रत्ययः इति मन्ये महोदय
वर्गीयरूपम् अस्तु समीचीनं धन्यवादः सम्बन्धः सम्बन्धः
घटे विद्यमानाय अभाव प्रत्यय घटे प्रत्यय वर्तते एव
सम्बन्ध अभावसम्बन्धः
अच्छा अभावसम्बन्धीया प्रतियोगिता सा अभावीया
भारतसम्बन्धः कोऽपि अस्ति चेत् भारतीयः भारतीय
तथैव
अस्तु समीचीनम् अस्तु इदानीम् अग्रे तत्र हा शुभभगिनी अग्रे पठति वा
आं महोदय तत्र ध्येयं यत् तदा तदारभ्य
अत्र 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 वृक्षे इति
क्षम्यताम् अत्र वृक्षे अत्र वृक्षे केवलं स्वरूपसम्बन्ध स्वरूपसम्बन्धरूप अवच्छेदकत्वम् अग्रदेशस्य पुस्तकात्
पठामि
एकक्षणं
परिच्छेदं पठतु भगिनि एतावत् पठित्वा तदनन्तरं वदतु
अहं मम करपत्रात् पठामि महोदय
एकक्षणं
अत्र वृक्षे केवलं स्वरूपसम्बन्धरूपावच्छेदकत्वम् अग्रदेशस्य अन्यूनातिरिक्त
अन्यून अनतिरिक्त
किं महोदय
अन्यून अनतिरिक्त
क्षम्यताम् अन्यून अनतिरिक्तवृत्तित्वं नाम यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इति व्याप्यत्वे सति व्यापकत्वम् अत्र वृक्षे तु सामानाधिकरणं सामानाधिकरण्यम् अपि वक्तुं न शक्यते यत्र यत्र कपिसंयोगनिरूपित अधिकरणता वृक्षे तत्र तत्र अग्रभागः अस्ति वा नास्ति तर्हि अग्रभागस्य अन्यून अतिरिक्तवृत्तित्वं नास्ति
अनतिरिक्त
क्षम्यतां महोदय तर्हि अग्रभागस्य अन्यून अनतिरिक्तवृत्तित्वं नास्ति समानाधिकरण्यम् अपि नास्ति अतः स्वरूपसम्बन्धरूप अवच्छेदकत्वम् इत्येव वक्तव्यं न तु व्याप्यत्वे सति व्यापकत्वरूप अवच्छेदकत्वम् इति तत्र इदानीं अस्माकं नूतन अधिकरणतायाः विषये अत्र इत्युक्ते स्वरूपसम्बन्ध रूप अवच्छेदकता इति इत्यस्य विषये अत्र वृक्षे केवलं स्वरूपसम्बन्धरूप अवच्छेदकत्वम् अग्रदेशस्य
वृक्षे नाम वृक्षस्य उदाहरणे कपिसंयोग
वृक्षस्य उदाहरणे
तस्मिन् सन्दर्भे अग्रदेशस्य अवच्छेदकत्वं कीदृशम् अस्ति
स्वरूपसम्बन्धरूप अवच्छेदकत्वम् अस्ति न तु पूर्वरीत्या यत् घटत्वे
आसीत्
दृष्टं
तस्मात् भिन्नमस्ति तस्मात् भिन्नम् अस्ति एतद् अवच्छेदकत्वम्
तस्मात् भिन्नम् अस्ति एतद् अवच्छेदकत्वम् इति अन्यून अनतिरिक्तवृत्तित्वं नाम यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् इति दृष्टवन्तः अपि च न केवलं तावत् यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इति समानाधिकरणं समान
अन्यून
इत्युक्ते तत्र कार्यक्षेत्रं समानम् इति दृष्टवन्तः
समानम् अस्ति तत्र उदाहरणार्थं पुनः तत्र स्मरणार्थं तत्र घट तत्र हा एतत् स्वीकुर्मः तत्र नाम जलत्वम् अपि द्रव्यत्वं यत्र यत्र जलत्वं तत्र किं तत्र तत्र द्रव्यत्वं
द्रव्यत्वम् अस्ति
तर्हि तत्र किं भवति तत्र कस्य क्षेत्रं बृहत् अस्ति
तत्र द्रव्यस्य क्षेत्रं बृहत् अस्ति
हा द्रव्यत्वं बहु
द्रव्यत्वं बृहत् अस्ति
हा द्रव्यत्वं कुत्रापि भवति वा यत्र जलत्वं नास्ति
भवति
उदाहरणार्थं
तत्र पृथ्वी इत्यादयः
द्रव्यत्वम् अस्ति किन्तु जलत्वं
जलत्वं नास्ति तत्र
नास्ति अतः तत्र तत्र
द्रव्यस्य
न्यूनवृत्तित्वं न्यूनवृत्तित्वं तत्र जलत्वं
जले अस्ति
जलत्वे जलत्वे
जलत्वे जलत्वे अस्ति
हा न्यूनवृत्तित्वम् अस्ति द्रव्यत्वस्य अपेक्षया
अपि च अतिरिक्तं
अतिरिक्तम् इति वक्तुम् इच्छामश्चेत् तत्र किं विपरीतया स्वीकरणीयं नाम द्रव्यत्वस्य किम् अस्ति
द्रव्यत्व जलत्वस्य अपेक्षया द्रव्यत्वस्य क्षेत्रम् अतिरिक्तम् अस्ति
अतिरिक्तवृत्तित्वम् अस्ति
अतिरिक्तवृत्तित्वं
देशं
बृहत् अतिरिक्तवृत्तित्वं द्रव्यत्वे अस्ति
द्रव्यत्वे
न्यून वृत्तित्वं जलत्वे अस्ति
जलत्वे अस्ति इति भवति अतः तत्र व्याप्यम् अपि व्यापकं नाम व्याप्यं नाम यत्र यत्र एकम् अस्ति तत्र तत्र यस्य क्षेत्रं तत्र बृहत् अस्ति इति तत्र तस्य विवरणम् अग्रे अपि भवति वयं पूर्वं किञ्चित् तस्य स्पर्शः जातः किन्तु अग्रे तस्य विवरणं भवति नाम यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं तत्र तत् अस्ति व्याप्यत्वे यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता व्यापकत्वम् इति
तत्र अस्तु
व्याप्यत्वे सति नाम यत्र एषः भागः अस्ति तत्र अन्यः भागः अपि अस्ति एतदस्ति व्यापकत्वम् इति तत्र तादृशसम्बन्धः व्याप्यत्वं प्रथमभागः एतावत् व्यापकत्वं द्वितीयभागः किन्तु तस्य स्पष्टताग्रे भवति
अस्तु अस्तु तर्हि अत्र वृक्षे तु सामानाधिकरणं सामानाधिकरण्यम् अपि वक्तुं न शक्यते यतोहि तत्र वृक्षः अग्रभागे नास्ति इति ज्ञातवन्तः
किं किं
न वृक्षः अग्रभागे अस्ति किन्तु अग्रभागः न कदापि वृक्षे
भवति
इति अस्ति अतः तत्र सामानाधिकरणं न आसीत् नास्ति अपि च यत्र यत्र कपिसंयोगनिरूपित अधिकरणता वृक्षे तत्र तत्र अग्रभागः अस्ति वा नास्ति तत्र अस्मिन् उदाहरणे दृष्टवन्तः कपिसंयोगः एकत्र वर्तते कपिसंयोगः वृक्षे अपि च तस्य अन्यत्र तस्य अभावः कपिसंयोगस्य अभावः अतः कपिसंयोगनिरूपित अधिकरणता वृक्षे तत्र तत्र अग्रभागः अस्ति वा इत्युक्ते नास्ति
यतोहि अग्रभागः
वृक्षे नास्ति एव
हा अपि तद् समीचीनं हा
तर्हि अग्रभागस्य अन्यून अनतिरिक्तवृत्तित्वं नास्ति. यतोहि तत्र अन्यून अनतिरिक्तवृत्तित्वं भवेत् चेत् सामानाधिकरणं भवेत् तत्र. इत्युक्ते यत्र यत्र कपि संयोगनिरूपित अधिकरणता वृक्षे तत्र तत्र अग्रभाग कथमोद अग्रभाग तत्र अस्ति.
अग्रभागः तत्र तत्र अधिकरणता भवेत् किन्तु
भवेत् किन्तु नास्ति. अतः अग्रभागस्य अन्यूनता अतिरिक्तवृत्तित्वं नास्ति.
सामान्यून अनतिरिक्तवृत्तित्वं
क्षम्यतां महोदय. अग्रभागस्य अन्यून अनतिरिक्तवृत्तित्वं नास्ति. सामानाधिकरण्यम् अपि नास्ति तेन एव कारणेन. अतः स्वरूपसम्बन्धरूप अवच्छेदकत्वम् इति एव वक्तव्यं, न तु व्याप्यत्वे सति व्यापकत्वरूप अवच्छेदकत्वम्. यतोहि तत्र इदानीं दृष्टवन्तः व्यापक घटस्य विषये, घटत्वस्य विषये अपि च प्रतियोगिताविषये तादृशं वक्तुं शक्नुमः. यतोहि यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता अपि च विपरीतरीत्या अपि तदेव अस्ति इति कृत्वा व्यापकव्याप्यरूपम् इति, व्याप्यत्वे सति व्यापकत्वम् इति दृष्टवन्तः. किन्तु अत्र सामानाधिकरणं नास्ति, अपि च अन्यून अनतिरिक्तवृत्तित्वम् अपि नास्ति वृक्षस्य अपि अग्रभागस्य इति कृत्वा तत्र तु स्वरूपसम्बन्धरूप अवच्छेदकत्वम् इति एव वक्तव्यम्
इति भवति. समीचीनम्, समीचीनम्, अत्र समीचीनं भगिनि. तत्र व्यापकत्वरूप अवच्छेदकत्वं तत्र व्याप्यत्वे सति व्यापकत्व अवच्छेदकत्वं नाम अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वम् इति एव. अत्र भिन्नं केवलं नूतनपदं, नूतना शैली तावदेव. अस्ति, समीचीनं भगिनि. अस्तु, धन्यवादः. अग्रे तत्र योगेन्द्रमहोदय अग्रे पठितुम् इच्छति वा? तत्र पूर्वम् उक्तं यत् इति
पूर्वम् उक्तं यत् घटत्वादि निष्ठप्रतियोगितावच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रहनिष्ठं भिन्नम्. इदानीं तत् कथम् अस्ति इति स्पष्टं स्यात् एकवारं स्वशब्दैः कथनेन समीचीनः अभ्यासः स्यात्.
तत्र पूर्वम् उक्तं नाम एतद् वाक्यं कुत्र अस्ति?
उपरितने भागे अस्ति प्रायः. घटत् यदा भवान् घटं येन घटस्य उदाहरणं दत्तवान् तत्र.
हा, एतद् वाक्यं तत्र विद्याधर्याम् अस्ति, पुस्तके अस्ति एतद् वाक्यम्.
अस्तु,
अतः तस्य एतस्य वाक्यस्य अवगमनार्थम् एतावत् सर्वम् उक्तम्.
एतत् सर्वं
नाम तत्र किं वदति? घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् तत्र विभक्ति का अस्ति?
पञ्चमी.
पञ्चमी, पञ्चमी नाम तत्र तस्मात् भिन्नम् अस्ति, भिन्नमस्ति, तस्मात् भिन्नमस्ति. तस्मात् किं भिन्नमस्ति?
मूलाग्रनिष्ठ
अवच्छेदकत्वम्
अवच्छेदकत्वं निष्भिन्नमस्ति,
भिन्नमस्ति. इदम् अवच्छेदकत्वं यत् मूलाग्रनिष्ठमस्ति तद् भिन्नमस्ति. कस्मात् भिन्नं? घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् भिन्नमस्ति. तर्हि स्वशब्दैः किञ्चित् वदतु महोदय तत्र.
यतोहि तत्र घटत्वादि तत्र यद् उदाहरणं दत्तमस्ति तत्र अधिकरणं समानम् अस्ति. अतः तत्र समानाधिकरणं भवति. परन्तु अत्र मूल अग्रभागः अस्ति, वृक्षः अस्ति, अपि च कपिसंयोगः अस्ति. तत्र कपिसंयोगः अपि च अग्रभागस्य अधिकरणं समानं न अस्ति. अतः तत्र स्वरूपसम्बन्ध अरूप अवच्छेदकत्वम् अस्ति परन्तु यत्र वयं घटस्य उदाहरणे अनन्य अनरिक्तवृत्तित्वम् अन्यून्य अनतिरिक्त रूप अवच्छेदकत्वम् अस्ति तत्र तत्र भेदः यः अस्ति अधिकरणं समानमस्ति
हा एकस्मिन् अधिकरणं समानमस्ति अन्यस्मिन् अधिकरणं भिन्नमस्ति समीचीनं महोदय अपि एकस्मिन् तत्र यत्र यत्र तत्र तत्र इति वक्तुं शक्नुमः अत्र तु तादृशप्रयोगः न भवति
न भवति
न भवति उत्तमं महोदय हा धन्यवादः समीचीनं हा
धन्यवादः
हा अग्रे अपि एकवारं पठति वा महोदय तत्र पा अथवा अस्तु अन्य कोऽपि कुर्यात् अस्तु महोदय अन्य कोऽपि कुर्यात् सम्यक् धन्यवादः महोदय अस्तु अग्रे तत्र पद्मभगिनी अग्रे पठितुम् इच्छति वा
घटे विद्यमानघटत्वप्रतियोगितयोः समानाधिकरण्यम् अतः अन्यून अनतिरिक्त वृत्तित्वरूप अवच्छेदकत्वं घटत्वे अवच्छेदकं घटत्वं तच्च अन्यून अतिरिक्तवृत्तिः भवति अन्यून अनतिरिक्तवृत्तिः भवति तस्मिन् घटत्वे विद्यमाना अवच्छेदकता कीदृशी इति चेत् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता प्रतियोगिता यत्र यत्र अस्ति तत्र तत्र घटत्वं यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इत्यनेन घटत्वं प्रतियोगितां प्रति अन्यूनवृत्तिः भवति अनतिरिक्तवृत्तिः च उभयमपि भवति तदेव उक्तं घटत्वं प्रतियोगितां प्रति अन्यून अनतिरिक्तवृत्तिः तर्हि घटत्वनिष्ठा अवच्छेदकता कीदृशस्वरूपं प्राप्नोति अन्यून अनतिरिक्तवृत्तित्वरूपम् आहत्य घटत्वम् अन्यून अनतिरिक्तवृत्ति तस्मिन् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता अग्रे पठामि वा
एतावत् किञ्चित् विवृणोतु भगिनि समीचीनं स्पष्टं भवेत् किन्तु एकवारं किञ्चित् वदतु तदनन्तरम् अग्रे सरामः
अस्तु घटे घटत्वम् अस्ति घटे प्रतियोगिता अपि अस्ति द्वयोः सम्बन्धः अस्ति तत्र अवच्छेदक अवच्छेद्यरूपसम्बन्धः तद् समानाधिकरणम् अस्ति तत्र यतः घटत्वमपि घटे वर्तते प्रतियोगिता अपि घटे वर्तते अतः समानाधिकरण्यमस्ति इति वदामः अतः यत्र यत्र इति यत्र यत्र तत्र तत्र तद् उपयोगं कर्तुं शक्नुमः तत्र यत्र यत्र घटत्वमस्ति तत्र तत्र प्रतियोगिता अस्ति इति वक्तुं शक्नुमः अवच्छेदकः अत्र अस्ति घटत्वम् अवच्छेद्यमस्ति प्रतियोगिता सो एतादृशभावः अस्ति चेत् समानाधिकरण्यम् अस्ति चेत् वृत्तित्वरूपम् अन्यून अनतिरिक्तवृत्तित्वरूपमेव भवति अवच्छेदकता वास्तविकतया द्वयमस्ति एकं तु अन्यूना अनतिरिक्तवृत्तित्वरूप अवच्छेदकता एतत् यत्र यत्र घटत्वमस्ति तत्र तत्र प्रतियोगिता अस्ति इति सामान्य अधिकरणम् अस्ति चेत् अन्यून अनतिरिक्तवृत्तित्वरूपभावं भवति
समीचीनम्
अतः घटे विद्यमानघटत्वप्रतियोगितायोः समान अधिकरण्यम् इति दत्तं सो अतः अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं घटत्वे अस्ति सो घटत्वे कीदृश अवच्छेदकत्वम् इति चेत् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं यतः यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इति अस्ति इति कारणात् तत्र समानाधिकरण्यम् इत्यनेन अन्यून अनतिरिक्तं स्थित्वरूप अवच्छेदकत्वमस्ति
अत्र भगिनी तत्र नाम तत्र समानाधिकरणम् इति भिन्नम् अस्ति अन्यून अनतिरिक्तवृद्धिः अपि भिन्नमस्ति खलु?
किम् अन्यून अनतिरिक्तवृत्तिः
भिन्नमस्ति, समानाधिकरणं भिन्नमस्ति.
समानाधिकरणं भिन्नमस्ति
नाम हा तत्र कपिसंयोगः तत्र वृक्षे अस्ति खलु?
आमां.
कपिसंयोग अभावः अपि वृक्षे अस्ति खलु?
अभावः अपि वृक्षे अस्ति
खलु? तदेव तत्र अव्याप्यवृत्ति अव्याप्यवृत्तित्वम् इति उक्तवन्तः खलु तत्र? हा नाम तत्र कपिसंयोगः अपि संयोगस्य अभावः द्वयोः समानाधिकरणमस्ति वृक्षः खलु? हा किन्तु यत्र यत्र संयोगः तत्र यत्र 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 घटत्वं तत्र तत्र घटस्य अभावः इति वक्तुं शक्नुमः वा?
यत्र यत्र घटत्वं तत्र तत्र अभावः
नास्ति. नास्ति खलु? किन्तु अत्र किम् अभवत् तत्र संयोगः अपि अभावः तयोः समानाधिकरणम् अस्ति किन्तु यत्र यत्र संयोगः तत्र तत्र अभावः इति वक्तुं शक्नुमः वा? यत्र यत्र संयोगः तत्र तत्र अभावः, यत्र यत्र संयोगस्य अभावः तत्र तत्र संयोगः इति वक्तुं शक्नुमः वा?
वक्तुं न शक्नुमः.
हा अतः तत्र अन्यून अनतिरिक्त अन्यून अनतिरिक्तवृत्तिः भिन्नमस्ति, समानाधिकरणं भिन्नमस्ति. समानाधिकरणं बहुत्र भवेत् किन्तु अन्यून अनतिरिक्तवृत्तित्वं सर्वदा न भवति खलु?
अस्ति. यत्र यत्र समानाधिकरणं भवति तत्र सर्वदा तत् अन्यून अनतिरिक्तव्यक्तित्वरूपं भवति इति नास्ति.
हा इति एव वार्ता. समीचीनं. अत्र केवलं तत्र मनसि तत्र भेदः अस्ति इति तत्र भेदः कः इति मनसि भवति तावदेव. यतोहि तत्र उदाहरणे वयम् उक्तवन्तः तत्र अन्योन अनतिरिक्तवृत्तित्वम् अपि समानाधिकरणम् अस्ति इति तत्र उक्तमस्ति. किन्तु हा एकः एव विषय द्विवारम् उक्तमिति चिन्तनं मास्तु. अन्योन अनतिरिक्तवृत्तिः भिन्नम् अस्ति, समानाधिकरण्यं भिन्नम् अस्ति.
परन्तु अस्मिन् अस्माकं प्रकृतविषये समानाधिकरण्यम् अपि नास्ति खलु? यत्र यत्र
सत्यं भगिनि. हा तदपि नास्ति.
परन्तु सर्वदा तादृशं न भवति
इति वार्ता. अतः समीचीनं भगिनि. अस्मिन् अस्माकं तत्र कपिसंयोगस्य उदाहरणे अवच्छेदकस्थले वयं अवगतवन्तः नाम तत्र अग्रदेशः अपि कपिसंयोगनिष्ठ तत्र निरूपित अधिकरणता तयोः समानाधिकरणं नास्ति. यत्र समानाधिकरणं नास्ति तत्र तु अन्योन अनतिरिक्तवृत्तित्वं न भवति. अतः समानाधिकरणं नास्ति इति दृष्ट्वा अन्योन अनतिरिक्तवृत्तित्वं नास्ति इति अवगतवन्तः.
वृक्ष कपिसंयोगः वृक्षे अस्ति, वृक्षः तु अग्रभागे अस्ति.
वृक्षः अग्रभागे अस्ति इति अस्ति. समीचीनं. अस्मिन् उदाहरणे तत्र अभावः अपि कपिसंयोगः अपि कपिसंयोगस्य अभावः तयोः सामानाधिकरण्यं वर्तते. किन्तु कपिसंयोगः अपि कपिसंयोगस्य अभावः तयोः मध्ये तत्र अन्यून अनतिरिक्तवृत्तित्वसम्बन्धः वर्तते इति तु कदापि न भवति. अस्तु समीचीनम्. अस्तु धन्यवादः भगिनि. हा अस्तु अग्रे उषा भगिनी पठति वा?
आं महोदय. यथा गन्धवती पृथिवी, गन्धः पृथिव्यां, पृथिव्याः असाधारणधर्मः गन्धवत्वम्. तत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता पृथिव्यां विद्यमाना अधिकरणता अवच्छे विद्यमाना विद्यमाना अधिकरणता अवच्छेद्या पृथिवीत्वम् अवच्छेदकम् पुनरेकवारं पठामि महोदय. यथा गन्धवती पृथिवी, गन्धः पृथिव्यां, पृथिव्याः असाधारणधर्मः गन्धवत्वं, तत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता पृथिव्यां पृथिव्यां विद्यमाना अधिकरणता अवच्छेद्या पृथ्वीत्वम् अवच्छेदकं. तर्हि पृथ्वीत्वनिष्ठ अवच्छेदकता कीदृशी इति चेत् अन्यून अनतिरिक्तवृत्तित्वरूपा. पृथ्वीत्वम् अवच्छेदकम् अन्यून अनतिरिक्तवृत्तिः. ततः
विसर्गः नास्ति भगिनि, वृत्ति
वृत्ति पृथ्वीत्वम् पृथ्वीत्वम् अवच्छेदकम् अन्यून अनतिरिक्तवृत्ति. ततः उपरि गमनार्थम् अवच्छेदकयोगः त्वम् इति भवति. अतः अन्यून अनतिरिक्तवृत्तियोगः त्वम् इत्यपि भवति. वयं दृष्टवन्तः अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता घटत्वस्य कृते अस्ति इति. यथा गन्धवती पृथ्वी, गन्धवती पृथ्वी वयं पठितवन्तः गन्धवत्वं पृथिव्याः लक्षणम् इति. गन्धः पृथिव्याम् ओके. पृथिव्याः असाधारणधर्मः गन्धवत्वं वयं पठितवन्तः.
तत्र असाधारणधर्मः नाम
लक्षणं,
लक्षणम् इति एव समीचीनं. तेनैव वयं जानीमः एषा पृथ्वी अस्ति, असाधारणधर्मः
इति गन्धवत्वम् अस्ति पृथिव्याः. तत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता पृथिव्यां, गन्धनिष्ठ आदेयता निरूपित अधिकरणता पृथिव्याम् ओके. विद्यमाना अधिकरणता अवच्छेद्या पृथ्वीत्वम् अवच्छेदकम्. सो पृथ्वीत्वम् अवच्छेदकम् देन् अवच्छेद्या विद्यमाना अधिकरणता अवच्छेद्या अधिकरणता पृथ्वीत्वम् अवच्छेदकं देन् अवच्छेद्य गन्धनिष्ठ आदेयता निरूपित अधिकरणता पृथ्वी देन् विद्यमाना पृथ्वीत्वम् अवच्छेदकं. सो पृथ्वीनिष्ठ पृथ्वीत्वम् अवच्छेदकं तत् अवच्छेदकनिरूपित अवच्छेद्यं भवति गन्धत्वं गन्धवत्
तत्र अधिकरणता कुत्र अस्ति?
अधिकरणता पृथिव्यां,
पृथिव्याम् अस्ति
अस्ति.
पृथ्वीत्वं कुत्र अस्ति?
पृथ्वीत्वमपि पृथ्वी पृथ्वी एव अस्ति. पृथ्वीनिष्ठ पृथ्वीत्वम् अस्ति.
अतः तत्र अवच्छेदकः कः?
पृथ्वीत्वं पृथ्वीत्वम् अवच्छेदकं भवति.
अवच्छेद्या अस्ति,
अवच्छेद्या किम् अस्ति इति
अधिकरणता.
ओ अधिकर
तत्र नाम तत्र तत्र पृथिव्याः लक्षणवाक्यमस्ति गन्धवत्वं,
गन्धवत्वं
नाम किं कस्मिन् अस्ति? गन्धः अपि पृथ्वी,
गन्धवः गन्धत्वं पृथिव्याम् अस्ति.
न न गन्धः पृथिव्याम् अस्ति,
गन्धः पृथिव्याम् अस्ति, गन्धः पृथिव्याम् अस्ति.
तर्हि गन्धः आदेयः वा अधिकरणं वा?
गन्धः आदेयः, अधिकरणः पृथ्वी,
अधिकरणं पृथ्वी
पृथ्वी.
तर्हि पृथिव्यां किम् आगतं तर्हि? अधिकरणता खलु,
अधिकरणता अस्ति. गन्धः आदेयता अस्ति,
गन्धे गन्धे आदेयता,
गन्धे आदेयता अस्ति. आं महोदय,
तर्हि पृथिव्याम् अधिकरणता आगता अस्ति. तर्हि तस्याः अवच्छेदकम् अस्ति पृथ्वीत्वम्. नाम तत्र या अधिकरणता तत्र अस्ति इदानीं पृथिव्यां तत्र गन्धनिष्ठ आदेयता निरूपित
अधिकरणता
तत् किं जले भवति वा तादृशी अधिकरणता गन्धनिष्ठ आदेयता निरूपित
अधिकरणता पृथिव्यां
भवति जले भवति वा तद्
नास्ति महोदय
हा जले न भवति खलु तत्र तत्र अतः केवलं पृथिव्यामेव भवति इति चिन्तनम् अतः तत्र यत्र यत्र पृथिवी त्वं तत्र तत्र अधिकरणता खलु
आम् आं महोदय
अपि यत्र यत्र अधिकरणता तत्र तत्र पृथिवीत्वं भवेत् खलु
आम्
अतः
तर्हि तर्हि पृथ्वीत्वनिष्ठ अवच्छेदकता पृथ्वीत्वनिष्ठ अवच्छेदकता कीदृशी इति चेत् अन्यून अनतिरिक्तवृत्तिरूपा
किमर्थं
यत्र यत्र पृथ्वीत्वम् अस्ति तत्र तत्र तत् अवच्छेदकं
यत्र यत्र पृथ्वीत्वम् अस्ति तदेव अवच्छेदकं
तत् अवच्छेदकं तत् अवचेतकं तेन यत्र यत्र पृथ्वीत्वम् अस्ति तत्र तत्र अवच्छेदकम् गन्धत्वम् अपि अस्ति इति
न तत्र क्षम्यतां तत्र कयोः मध्ये अवच्छेदक अवच्छेद्यभावः अस्ति अत्र तत्र एकमस्ति अधिकरणता खलु अधिकरणता अस्ति अवच्छेद्या खलु
आं महोदय
अवच्छेदकं किम् अस्ति
अवच्छेदकं पृथ्वीत्वं
पृथ्वीत्वम् अस्ति अस्तु तर्हि अवच्छेदकम् अस्ति पृथ्वीत्वम् अवच्छेद्या अस्ति अधिकरणता इदानीं वाक्यं वदतु नाम तत्र अन्योन अनतिरिक्तवृत्तित्व अस्ति
यत्र यत्र अधिकरणता तत्र तत्र पृथ्वीत्वं यत्र यत्र पृथ्वीत्वं तत्र तत्र अधिकरणता अपि
अस्ति समीचीनं
सो पृथ्वीत्वम् अवचेतकम् अन्यून अनतिरिक्त पृथ्वीत्वम् इति अवचेतकम् अन्यून अनतिरिक्तवृत्ति
तत्र वृत्तिः यद्यपि वृत्तिः इति स्त्रीलिङ्गपति स्त्रीलिङ्गपदम् अस्ति मतिशब्दवत् अस्ति वृत्तिः विसर्गेण सह वृत्तिः इति स्त्रीलिङ्गपदमस्ति किन्तु अत्र समस्तपदमस्ति अत्र अन्यून अनतिरिक्तवृत्ति तेन तत्र बहुव्रीहि समासः तत्र कस्य तादृशी वृत्तिः अस्ति इति भवति तत्र अवच्छेदकम् इति नपुंसकलिङ्गे अस्ति अतः तत्र अन्वयः एतत् पदम् एतस्य विशेषणं भवति अवच्छेदकम् इति पदस्य विशेषणं भवति अतः तत्र नपुंसकलिङ्गरूपमिति कृत्वा तत्र विसर्गः नास्ति
विसर्गः नास्ति अस्तु महोदय ततः उपरि गमनार्थम् अवच्छेदकयोगकत्वम् इति भवति अतः अन्यून अनतिरिक्तवृत्तियोगकत्वम् इति भवति
नाम तत्र अवच्छेदके अवच्छेदके कीदृश वृत्तित्वम् अस्ति इति यदि वदामः तत्र अन्यून अनतिरिक्तवृत्तित्वम् अस्ति इति अपि वक्तुं शक्नुमः इति अस्ति समीचीनं अस्तु इदानीम् अग्रे तत्र नरसिंह महोदय भवान् न पठितवान् एतावत् अग्रे पठितुम् इच्छति वा
गन्धवती पृथिवी गन्धः पृथिवी
महोदय न पुनः गन्धः कुत्र अतः
पृथिव्याः पुनः गन्धः कुत्र पृथिव्याम् अतः गन्धनिष्ठ आदेयता निरूपित अधिकरणता पृथिव्यां तर्हि अधिकरणतायाः अवच्छेदकं पृथिवीत्वं किमर्थम् एवम् उक्तम् इति चेत् यत्र यत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति तत्र तत्र पृथिवी पृथिवीत्वमस्ति यत्र यत्र च पृथिव्या पृथिवीत्वम् अस्ति तत्र तत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति. दृष्टान्ते गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति नीलोत्पलपुष्पे तत्रापि पृथिवीत्वम् अस्ति. घटपटादौ यत्र यत्र पृथिवीत्वं तत्र तत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति. तर्हि गन्धनिष्ठ आदेयता निरूपित अधिकरणता अधिकरणतां प्रति पृथिवीत्वम् अस्ति न्यून अनातिरिक्तवृत्ति. गन्ध कुत्र पृथिव्यां पृथिव्यां गन्ध अस्ति गन्ध पृथिव्या लक्षणम् अतः गन्धनिष्ठ आदेयता निरूपित अधिकरणता पृथिव्यां पृथिवी अधिकरणं भवति अत्र गन्धः अधेयता भवति तर्हि गन्धः अधेय गन्ध गन्धत्वे अधेयता गन्धः अधेय तर्हि अधिकरणतायाः अवच्छेदकं पृथिवीत्वं पृथिवी अधिकरणम् इति कृत्वा तस्य अवच्छेदकं पृथिवीत्वं भवति. किमर्थम् एवम् उक्तम् इति चेत् यत्र यत्र गन्धनिष्ठ अधेयता निरूपित अधिकरणता अस्ति तत्र तत्र पृथिवीत्वम् अस्ति. इदानीं यत्र यत्र तत्र तत्र उपयुज्य वयं वदामः चेत् यत्र यत्र पृथिवीत्वं तत्र तत्र गन्धत्वम् इति भवति. अथवा
अत्र किमर्थम् एवम् उक्तम् इत्युक्ते किमर्थं तस्य अधिकरणतायाः अवच्छेदकं पृथिवीत्वम् अस्ति इति किमर्थम् उक्तम् इति प्रश्नः.
प्रश्ने तस्य उत्तरमस्ति तत्र यत्र यत्र पृथिवीत्वम् अस्ति तत्र तत्र गन्धत्वम् अस्ति अथवा यत्र यत्र गन्धत्वं भवति तत्र तत्र पृथिवीत्वं
यत्र यत्र अधिकरणता यत्र यत्र अधिकरणता अस्ति तत्र तत्र पृथिवीत्वम् अस्ति.
आमां यत्र यत्र अधिकरणता यत्र यत्र अधिकरणता तत्र तत्र पृथिवीत्वम् अतः अतः वयं तस्य अवच्छेदकं स्वीकर्तुं शक्नुमः
इति
यत्र यत्र च प्रतिवित्वम् अस्ति तत्र तत्र गन्धनिष्ठ आदेयतानिरूपित अधिकरणात् अस्ति. अत्र अधिकरणरूपेण वदामः चेत् यत्र यत्र प्रतिवित्वं तत्र तत्र गन्धनिष्ठादयतानिरूपित अधिकरणता इत्युक्ते
दृष्टान्ते
समानाधिकरणं यत्र यत्र गन्धत्वं तत्र तत्र समानाधिकरणं प्रत्ययः भवति.
हा नाम अन्यून अनतिरिक्तवृत्तिरूपम् अस्ति तत्र.
दृष्टान्ते गन्धनिष्ठ आदेयतानिरूपित अधिकरणता अस्ति नीलोत्पलपुष्पे तत्रापि प्रतिवित्वम् अस्ति. एकं पुष्पं स्वीकुर्मः नीलोत्पलपुष्प इति तत्र गन्धनिष्ठ आदेयतानिरूपित अधिकरणता अस्ति
तत्र नीलोत्पलपुष्पे गन्धः अस्ति
गन्धः अस्ति अतः गन्धः अस्ति अतः तत्र गन्धनिष्ठ आदेयतानिरूपित अधिकरणता अस्ति पुष्पे. गन्ध आदेयः भवति पुष्पः अधिकरणं भवति तत्र पुष्पे अधि पृथ्वीत्वमपि अस्ति अतः तत्र पुष्प इति समानाधिकरणं भवति गन्धः अनन्तरं पृथ्वीत्वस्य. घटपटादौ यत्र यत्र पृथ्वीत्वं तत्र तत्र गन्धनिष्ठ आदेयतानिरूपित अधिकरणता अस्ति. इदानीं घटपटादेव पश्यामः चेत् तत्र पृथ्वीत्वम् अस्ति अनन्तरं तत्र गन्धनिष्ठ आदेयतानिरूपित अधिकरणात् अपि भवति घटपटादौ
तत्र अपि गन्धः भवति घटपटादौ अपि गन्धः भवति.
तर्हि गन्धनिष्ठ आदेयतानिरूपित अधिकरणतां प्रति पृथ्वीत्वम् अस्ति अन्योन अनतिरिक्तवृत्ति इत्युक्ते तेषां मध्ये अन्योन अनतिरिक्तसम्बन्धः भवति यत्र यत्र तत्र
तत्र नाम तत्र पृथ्वीत्वं तस्य न्यूनवृत्तित्वं नास्ति तस्य क्षेत्रं लघु नास्ति तस्य क्षेत्रं बृहत् अपि नास्ति.
आङ्ग्लभाषायां वदामः चेत् दे गो टुगेदर्
इति अस्ति. अस्तु समीचीनं महोदय. हा तथैव तर्हि अन्यून अनतिरिक्तवृत्तित्वम् अस्ति अत्र इति. अस्तु समीचीनं धन्यवादः. अस्तु समीचीनमस्ति. तर्हि तत्र वयं बहु किमपि अतीतवन्तः तत्र अहं चिन्तयामि अहं चिन्तितवान् प्रायशः एकः वर्गः अवशिष्टः इति पश्यामः अग्रिमे वर्गे समापयितुं शक्नुमः न वा चिन्ता मास्तु. अस्तु तर्हि बहु समीचीनमस्ति. तर्हि अत्र स्थगयामः अग्रिमे सप्ताहे मिलामः. धन्यवादः. नमस्कारः.